अथ सप्तदशोऽध्यायः अर्जुन उवाच येषस्तविधिम् उष्कृत्य जयन्ते श्रद्धयान्वितः तेषां निष्ठा तु खा कृष्ण सत्त्वम् आहोरजस्तमः श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सस्वभावजा सात्विकी राजसी चैव तामसी चेति तां शृणु सत्त्वानुरूप सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यच्छास एव सः यजन्ते सात्विका देवान् यक्ष रक्षांसि राजसः प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जना अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनः दम्भाहङ्कारसंयुक्ता कामरागबलान्वितः कर्षयन्तः शरीरस्थं भूतग्रामम् अचेतसः मां चैवान्तः शरीरस्थं तान्विद्यासुरनिश्चयान् आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तथा दानं तेषां भेदम् इमं शृणु आयुसत्त्वबलारोग्य सुखप्रीतिविवादनः रस्यास्निग्धास्थिराहृद्य आहारासात्विकप्रियः खत्वं लवणात्युष्णा तीक्ष्णरुक्षाविदाहिनः आहारराजसस्येष्ठा दुःखशोकमयप्रदः यातयामं गतरसं पुथिपायुषितं चयात् उच्छिष्टम् अपि चामित्यं भोजनं तामसप्रियम् अफलाकाङ्क्षिभिर्यज्ञो विधिधिष्ठो य इच्छते यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः अभिसन्धाय तु फलं दम्भार्थम् अपि चैवयत् इच्छते भरतः श्रेष्ठ तं यज्ञं विधिराजसं विधिहीनम् अश्रष्ठानं मन्त्रहीनम् अदक्षिणं श्रद्धाविरहितं यज्ञं तमसं परिचक्षते देवद्विजगुरुराज्ञा पूजनं शौचम् आचवम् ब्रह्मचर्यम् अहिंसा च शरीरं तप उच्यते अनुद्वेगकरं वाक्यं सत्यं प्रियहितं चयत् स्वाध्यायाभ्यासनं चैव वाङ्मयं तप उच्यते मनःप्रसद्धसौम्यत्वं मौनम् आत्मविनिग्रहः पावसंशुद्धिर इत्येतत् तपो मानसम् उच्यते श्रद्धया परया तप्तं तपस्तत्रिविधं नरै अफलाकाङ्क्षिभिर्युक्तै सात्विकं परिचक्षते सत्कारमानपूजार्थं तपोदम्भेन चैव यत् क्रियते तत् इह प्रोक्तं राजसं चलम् अध्रुवम् मूढग्राहीनात्मनो यत् पिदाय क्रियते तपः परस्योत्साधनार्थं वा तत्तमसम् उद्धारितम् धातव्यम् इति यद्दानं दीयतेनुपकारिणे देशे काले च पात्रे च तदानं सात्विकं स्मृतं यत्तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः diyate cha palikshlishtam tadanam rajasam smritam adesha kale yatanam apatrebhyascha diyate asatkritam avajnatam tatamasam udaritam. Om tat sat iti nirdesho brahmanas trividha smritaha brahmanas tena vedascha yajnascha vihita pura tasmadomit yudharatya yajna dana tapakriyaha pravartante vidanukta satatam brahma vadinam tadityana bhisandaya palam yajna tapakriyaha dana kriyascha vividha kriyante moksha kangshibhi sadbhave sadhubhave cha saditye tat prayuchyate prashate karmani tata sachabdha bharta yuchyate yajne tapasidhane cha stiti sat iti chochyate karma chaiva tadartiyam saditye vabhidiyate ashradhaya hutam datam tapas taptam kritam chayat asadit yuchyate partha nacha tat pretyano iha. Hari Om Tat Sat iti Srimad Bhagavad Gita Supanishatsu Brahma Vidyayam Yoga Shastre Shri Krishna Jana Samvade Shraddha Traya Vibhagayo Nama Saptadashodhyayaha.